अथ एकविंशः पाठः तृतीयः खण्डः। अस्ति कस्मिंश्चिन्नगरसमीपे सन्निकृष्टविवराभ्यन्तर्षायी जम्बुकश्चण्डरभो नाम। स कदाचिदाहारमन्वेषमाणः शपामासाद्य क्षुत् क्षामगलसम्मीलितलोचनः परिभ्रमन्नगरं प्रविष्टः। तन्नगरवासिभिश्च सारमेयै तीक्ष्णदर्शनकोटिविलुप्यमानावयवो भयभैरवभेत्काररवपूरितदिग्विवर इतस्ततः प्रस्खलन् पलायमानः कस्मिंश्चिदज्ञानान्नीलीकलशौ सन्निपतितः। स्वगणाश्च यथागतम् प्रायात् सावपि कृत्स्रेणायुःशेषतया स्माम् नीलीकलशात् समुत्तस्थौ। तथास्य तत्शरीरम् नीलीरसरञ्जितम् दृष्ट्वा समीपवर्तिनः क्रुष्टुकगणाः कोऽयमिति भयतरलदृशः सर्वा दृशः प्रदुद्रुवुः। असावप्यचिन्तयत् नूनमिमाम् स्वरूपविकृतिम् दृष्ट्वैते पलायन्त इति। अथ धीरचित्तस्तांश्चनैरवादीत् अलम् सम्भ्रमेण अहमाखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः क्षितितलमागत इति। अथ तद्वचनमाकर्ण्य सिंह व्याघ्र चित्रक वानर शश हरिण वृष दंश जम्बुकादयश्वापदगणास्त्वम् केसरि करज कुलिश दारित मत्तेभ पिषितैरापूर्यमाण कुक्षिः। प्रतिदिनं च केसरि करज कुलिश दारित मत्तेभ पिषितैरापूर्यमाण कुक्षिः कक्षमिव तं जम्बुकपूगं बहिः कृत्वा सिंहव्याघ्रादीनासन्नवर्तिनश्चकार। एकदा त्वसौ विविधपिषितनाशितक्षुद्दिक्षु स्थितानां क्रुष्टुकानां क्रोक्षताम् निनादं श्रुत्वा त्वरिततरमुच्चैर्निननाद। अतस्ते सिंहादयस्त्रपया भूभागदृष्टिभाजः कष्टमहो वञ्चिताः स्मः कृष्टायमिति अवधार्य रुषा तं परुषगिरं नाशितवन्त इति।